अथ कार्तवीर्यार्जुनस्तोत्रम्। कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान्, तस्य स्मरणमात्रेण गतं नष्टं च लभ्यते। कार्तवीर्यः खलद्वेषी कृतवीर्यसुतो बली, सहस्रबाहुः शत्रुघ्नो रक्तवासाधनुर्धरः, रक्तगन्धो रक्तमाल्यो राजा स्मर्तुरभीष्टदः। द्वादशैतानि नामानि कार्तवीर्यस्य यः पठेत्, सम्पदस्तत्र जायन्ते जनस्तत्र वशं गतः। आनयत्याशु दूरस्थं क्षेमलाभयुतं प्रियम्। सहस्रबाहु सशरं महितं सचापम्, रक्ताम्बरं रक्तकिरीटकुण्डलम्, चोरादिदुष्टभयनाशनमिष्टदं तं ध्यायेन्महाबलविजृम्भितकार्तवीर्यम्। यस्य स्मरणमात्रेण सर्वदुःखक्षयो भवेत्, यन्नामानि महावीरश्चार्जुनः कृतवीर्यवान्। हैहयाधिपते स्तोत्रं सहस्रावृत्तिकारितं, वाञ्छितार्थप्रदं नृणां स्वराज्यं सुकृतं यदि। इति कार्तवीर्यार्जुनस्तोत्रम्।